सर्वेभ्यः नमस्काराः. मङ्गलश्लोकात् आरभामः. येनाक्षरसमां नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः. वाक्यकारं वरस्यं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्. मुनित्रयं नमस्कृत्य तदुक्तिः परिभाव्य च वैयाकरणसिद्धान्तकौमुदीयं विरच्यते. आदौ तेषां छात्राणां क्षमां याचे ये असैन्मेण्ट् प्रेषितवन्तः, किन्तु मया अद्यैव मम ईमेल् दृष्टं. शनिवासरादारभ्य अहं बेङ्गलूरुनगरे नासम्, अतः द्रष्टुम् अशक्ता. अतः क्षन्तव्य, केषामपि रिप्लै कर्तुं न क्षमा. अद्य कक्षायाः अनन्तरं यत् असैन्मेण्ट् दत्तमासीत् तस्य विषये किञ्चित् चर्चां कुर्मः. गतकक्षायाः पुनरावर्तनं किञ्चिदिव. तपरकरणम् इति अधीतं. किन्नाम तपरकरणम्? अणुजित्सवर्णस्य चाक्रत्ययः इति सूत्रेण सवर्णानां ग्रहणं भवति इति ज्ञातं. किन्तु यदा सः अण् तपरः भवति, तात् परः तपरः अथवा तः परः यस्मात् सः तपरः, तथा तपरः भवति तदा तु केवलं तत्कालानां सवर्णानां ग्रहणं भवति, न तु सर्वेषां सवर्णानाम् इति तपरकरणस्य वैशिष्ट्यम्. ततः काश्चन संज्ञाः अधीताः. वृद्धिसंज्ञा वृद्धिरादैच् इति सूत्रेण, गुणसंज्ञा अदेङ्गुणः इति सूत्रेण, धातुसंज्ञा भूवादयो धातवः इत्यनेन, निपाताः इत्यधिकारः, तत्त्वसूत्रद्वयं चादयोस्तत्वे तथा प्रादयः इति चादिगणे पठितानां तथा प्रादिगणे पठितानां शब्दानां निपातसंज्ञा विहिता. अन्ते तु शब्दस्य स्वरूपग्रहणं, स्वं रूपं शब्दस्य अशब्दसंज्ञा. व्याकरणशास्त्रे याः संज्ञाः उपयुज्यन्ते ताः विना अन्यत्र सर्वत्र व्याकरणे शब्दस्यैव प्राधान्यम्. यत्किञ्चिदपि कार्यं शब्दस्यैव भवति, न तु अर्थस्य इति सूत्रार्थः. इदं सूत्रं न संज्ञासूत्रं, कापि संज्ञा न विधीयते, केवलं परिभाषासूत्रवत् अस्ति. परिभाषासूत्रमपि न, तस्य ग्रहणं भवेत् व्याकरणशास्त्रे. शब्दस्य प्राधान्यं वा अर्थस्य प्राधान्यं वा इति प्रश्ने शब्दस्यैव ग्रहणं. शब्दसंज्ञानां विषये व्याकरणशास्त्रे याः संज्ञाः विशेषेण विहिताः तासां विषये अर्थस्य ग्रहणम् इति ज्ञातम्. इदानीम् अग्रिमं सूत्रं भवति येन विधिस्तदन्तस्य. येन विधिः तदन्तस्य इति सूत्रच्छेदः. सूत्रार्थः लिख्यते दीक्षितैः, विशेषणं तदन्तस्य संज्ञा स्यात् स्वस्य च रूपस्य. येन इति तृतीया अस्ति. येन इति यत् शब्देन अस्मिन् सूत्रे विशेषणं स्वीक्रियते. येन विधिः, यं विशेषणं स्वीकृत्य किञ्चिद् विधीयते तत् तदन्तस्य संज्ञा भवति स्वस्य च रूपस्य. स्वस्य इति अनुवर्तते संरूपम् इत्यतः. अतः विशेषणं तदन्तस्य संज्ञा स्यात् स्वस्य च रूपस्य इति सूत्रार्थः. कथम् अस्य सूत्रस्य प्रयोगः इति ज्ञायते चेत् सूत्रार्थः स्पष्टीभविष्यति. उदाहरणार्थम् अङ्गस्य इति कश्चन अधिकारः अस्ति. अङ्गं नाम किम् इति अग्रे उच्यते. प्रायेण अङ्गं नाम प्रकृतिभूतं किञ्चित्. उदाहरणार्थं राम इति प्रातिपदिकात् सुप्रत्ययः क्रियते चेत् राम इत्येतत् अङ्गं भवति. यस्मात् प्रत्ययः क्रियते सः भागः अङ्गम् इति उच्यते. अङ्गस्य कार्यम्, अङ्गस्य इत्यधिकारे सपादाध्याये, अर्थात् षष्ठाध्यायस्य चतुर्थपादादारभ्य सप्तमाध्यायस्य अन्त्यपर्यन्तम् अङ्गाधिकारः इति उच्यते. अस्मिन् अधिकारे यानि यानि कार्याणि विधीयन्ते तानि सर्वाणि अङ्गस्य भवन्ति इति अर्थः. तस्मिन् अधिकारे कञ्चन सूत्रमस्ति जरायाः जरसंज्ञकरस्य. जरा इति शब्दस्य जरस् इति आदेशः विधीयते. अङ्गस्य इति अधिकारे जरा इति अङ्गस्य जरस् आदेशः भवति इति सूत्रार्थः. This is just an example. Don't worry about the exact meanings of either Angasya or Jaraya Garhana. This just tells you that Angadhikara is an Adhikara, a large Adhikara which spans about 5 paras of Ashtadhyayi. All the karyas which are mandated in this Hikara, for Jara, the word Jara, Jara, hope everybody knows, it means old age. Jara, for the word Jara, you get an Adesha called Jaras, is what this sutra tells. Jarayaha Jaras Anyatarasya. Now, Angasya is called a Visheshya and Jarayaha is a Visheshana. Okay, now, I hope I don't need to explain what is a Visheshana and what is a Visheshya. Visheshana is a qualifier, an adjective. Whereas the Visheshya is that which is qualified. Now, Jara is the Visheshana and Angasya is the Visheshya. So, Angam Visheshyam, Jara iti Visheshanam. So, what do you do by this sutra? Ena Vithis Tadantasya tells you that wherever you have a Visheshana, whatever the Karya that sutra is telling will apply for that particular particle and also for Tadanta. Example, now Jara. This sutra tells you, replace Jara with Jaras. Okay? So now if you have the Jara Shabda, Jara Jare Jaraha, there you can replace Jara with Jaras and get Jara Jarasi, Jarasau Jarasaha. Okay? Now, even for the Nirjara Shabda is a Samasa. Jarayaha Nishkrantaha Nirjaraha. Nirjara is a Samasa in which Jara is at the end. So this is Tadanta. This is Tatu. Tatu means that which is specifically mentioned in the sutra is tatu, whereas that which is at the end of, if that particular thing is at the end of something else, that will be called tadanta. So the example is very clear. Jara is what is specified in the sutra, jarayaha jarasanya tarasya, and nirjara is tadanta. Okay. So according to our sutra, visheshanam tadantasya samyasya svasyate rupasya. Tadantasya api karyam bhavati. Jara shabdasya yat karyamuktam, tata tadantasya, nirjara shabdasya api jarasadeshaha bhavati. Nirjaraha nirjarasau iti rupasya bhavati. Svasya ca rupasya iti uktatvat, kevala jara shabdasya api tat karyam bhavati. So, whenever you have an adjective, you will get the karya for itself and also for tadanta. Okay? If this were not the case, asya sutrasya abhave, kevalam jara shabdasya jarasadeshaha bhavatisma. Nirjara ityasmat jarasadeshaha na bhavatisma. Okay? So the purpose of this sutra is to extend the range of a sutra. So whatever is mentioned, for that you will obviously get the karya, but you will also get for tadanta, is what this sutra tells you. Yena vidhi tadantasya, visheshanam tadantasya samyasya. This is like your savarna grahana. What you did in Savarna, you said you mention a, but you take 18 akaras because of another Savarnasya Tapratya. Similarly, here you tell, you mention some Shabda, but you also take Tadanta as long as it is a Visheshana. Okay? So, this is the Sutrartha. Visheshanam Tadantasya Samyasya Svasyata Rupasya. Anena Sutrena Angadhikare Jarayaha Jarasanyata Anyatarasyam Iti Vihitaha Jarasadeshaha kevalasya jara shabdasya api bhavati tadantasya nirjara shabdasya api bhavati. Hope this is clear. Now, there are two vartikas which are supporting this sutra. Okay? One of them is a nishedha and the other one is an exception to the nishedha. And see the nishedha first. That tells you, samasa pratyaya vidhu pratishedha. Yena vidhis tadantasya iti sutram. Samasa pratyaya vidhau pratishedhaha. Nama, samasa pratyaya vidhau tadanta vidhihi nabhavati. Yena vidhis tadantasya iti sutram, samasa vidhau pratyaya vidhau cha na pravartate. Samasa vidhau pratyaya vidhau cha tadanta grahanam nasti. Udaharanam pashyamaha. Samasasya udaharanam. Dvitiya satpurushaha iti kashtana samasaha asti. कृष्णं श्रितः कृष्णश्रितः, ग्रामं गतः ग्रामगतः, नरकं पतितः नरकपतितः इत्यादिरीत्या समासाः भवन्ति. सर्वत्र पूर्वपदं द्वितीया विभक्तौ भवति इति विशेषः. द्वितीया तत्पुरुषः इति समासः. समासविधायकं सूत्रं भवति द्वितीया श्रितातीत पतितगतात्यस्त प्राप्तापन्नैः. द्वितीया नाम द्वितीयान्तं सुबन्तम् एतैः पदैः सह समस्यते. श्रित अतीत पतित गत अत्यस्त प्राप्त आपन्न इत्येतैः सुबन्तैः सह द्वितीयान्तं पदं समस्यते इति सूत्रार्थः. इदानीम् एते सन्ति खलु श्रित अतीत पतित इत्यादयः, एतानि विशेषणानि भवन्ति. विशेष्यं किम् इति चेत् सुबन्तम्. सुबन्तं सुबन्तेन समस्यते इति समासस्य सामान्यनियमः. सुबन्तम् इति विशेष्यं. कीदृशं सुबन्तं, किं रूपं सुबन्तम् इति प्रश्ने सति एतद्रूपं श्रितादिकं सुबन्तम् एतैः सहैव द्वितीयान्तं समस्यते इति सूत्रार्थः. अत्र विशेषणमपि अस्ति, श्रित अतीत पतित इति प्रत्येकं विशेषणं, सुबन्तम् इति विशेष्यं. किमुक्तं पूर्वत्र? येन विधिः तदन्तस्य, इत्युक्ते विशेषणं तदन्तस्य संज्ञा स्यात् सस्यस्य रूपस्य इत्युक्तम्. कोऽर्थः? श्रित इति शब्देनापि समासः भवति, श्रितान्तेन शब्देनापि समासः भवति इति सूत्रार्थः. कृष्णं श्रितः इति कृष्णश्रितः इति भवति. कृष्णं परमश्रितः इत्यत्र समासः भवति वा? यथा जराशब्दस्य विहितः आदेशः निर्जरशब्दस्यापि प्राप्तः, एवमत्रापि श्रित इत्यनेन विहितः समासः परमश्रितः इत्यनेन सह भवति वा इति प्रश्नः. उत्तरं भवति न भवति. कुतो न भवति? समासप्रत्ययविधौ प्रतिषेधः, समासविधौ तदन्तग्रहणं नास्ति. यत् उक्तं सूत्रे यद् यत् पदं स्वीकृतम् उपात्तं तस्तेन सहैव समासः भवति, तदन्तेन समासः न भवति. This vartika is an exception, is a pratishedha to the sutra ena vidhistadantasya. What does ena vidhistadantasya tell? It tells if there is a visheshana and a visheshya. If you are telling some karya for the visheshana, you will also do it for tadanta, is what the sutra tells. This is what we call tadanta vidhi or tadanta grahana. Now, just that example you saw was jara. The jaras adesha which was mandated for jara shabda will also apply for nirjara shabda. Okay. Similarly, you have a samasa sutra here. Dvitiya shrita tita patita gatatyasta praptapannaihi. Here, these words are visheshana. Shrita, atita, patita, etc. And subantam is a visheshya. If you apply vena vithis tadantasya here, you will get samasa with shrita shabda. Krishnam shritaha, krishna shritaha. But you also should get a samasa with this paramashrita. Paramashtata saushritashta is paramashrita with this shritanta, tadanta. Okay? Visheshanam tadantasya samyasya dityukte. Even Krishnam paramashritaha, you will have to do dvitiya samasa. But the samasa does not happen. Why? Because this vartika tells, if it is samasa vidhi, there is no tadanta vidhi. It is a pratishedha for tadanta vidhi. When you are doing samasa, you will do the samasa only with the words which are specifically told in the sutra. You will not take tadanta. Okay? That is the samasa vidhau pratishedha. Pratyaya vidhavaka pratishedha asti. Naradibhyaha phak iti kinchana sutra masti. Tadhita pratyaya phak pratyaya. Yatha apatyathaka pratyaya santi. Dasharathasya apatyam dasharathihi. विनतायाः अपत्यं वैनतेयः. ते सर्वे अपत्यार्थकसद्धिताः इत्युच्यन्ते. तस्मिन् प्रकरणे किञ्चन सूत्रं भवति नडादिभ्यः फक् इति. सद्धितसूत्राणि सद्धितप्रत्ययाः सर्वेपि प्रातिपदिकादेव विधीयन्ते. ज्ञाप्रातिपदिकादित्यधिकारः प्रातिपदिकात् सद्धितः विधीयते. कस्मात् प्रातिपदिकात् इति चेत् नडादिगणः अस्ति, तेभ्यः प्रातिपदिकेभ्यः फक् प्रत्ययः विधीयते. इदानीम् अत्र नडादिभ्यः इति विशेषणं प्रातिपदिकात् इति विशेष्यम्. नडादिरूपात् प्रातिपदिकात् फक् प्रत्ययः विधीयते इति सूत्रार्थः. अत्रापि स एव प्रश्नः. नडस्य अपत्यम् इति अस्ति चेत् प्रत्यये सति नाडायनः इति रूपं भवति. सूत्रनडस्य अपत्यम् इत्यस्ति चेत् इदं तदन्तं नडशब्दान्तम् अस्यापि फक् प्रत्ययः भवति वा इति प्रश्नः. नडः सूत्रनडः इति ऋष्योः नाम, द्वयोः मुन्योः नाम भवति. नडः इति कश्चन मुनिः, सूत्रनडः इत्यपि कश्चन मुनिः. नडस्य अपत्यं गोत्रापत्यं नाडायनः इति यथा भवति, तथा सूत्रनडस्य अपत्यं सूत्रनडायनः इति वा अथवा सौत्रनडायनः इति वा भवति वा इति प्रश्नश्चेत् न भवति. किमर्थं न भवति? समासप्रत्ययविधौ प्रतिषेधः. यत्र प्रत्ययः विधीयते तत्र तदन्तग्रहणं नास्ति. यः शब्दः उपात्तः तस्यैव प्रत्ययः भवति, न तु तदन्तस्य इति इदं वार्तिकम्. येन विधिः तदन्तस्य इति सूत्रेण यत्र कुत्रापि विशेषणं भवति चेत् तदन्तग्रहणम् इति उच्यते. किन्तु वार्तिककारः वदति समासप्रत्ययविधौ प्रतिषेधः, समासविधौ प्रत्ययविधौ च तदन्तग्रहणं नास्ति. जस्ट् लैक् वि सा इन् समासस्, इवन् वेन् इट् इस् अ प्रत्ययविधि, वेन् यु आर् माण्डेटिङ्ग् अ सफिक्स्, यु विल् नाट् हाव् तदन्तविधि. So whatever shabda is directly told in the sutra, only that shabda will get the pratyaya. Tadanta, anything ending in that shabda will not get pratyaya. Example, the phak is a suffix which is given by the sutra, nada vibhya phak. The sutra tells only nada. So you will get the pratyaya only for nada, becomes nadayana. But sutra nada will not get the same pratyaya because there is no tadanta vidhi in, no tadanta grahana in pratyaya vidhi. इति समासप्रत्ययविधौ प्रतिषेधः इति वार्तिकस्य अर्थः. किन्तु अस्य वार्तिकस्य पुनः किमस्ति, वर्जनम् अस्ति. यथा उगिद्वर्णग्रहणवर्जम्, उगिद्वर्णग्रहणवर्जम् समासप्रत्ययविधौ प्रतिषेधः. अदर् देन् उगिद्ग्रहण एण्ड् वर्णग्रहण इन् समासप्रत्ययविधि तदन्तग्रहण विल् नाट् बि देर् इस् वाट् वार्तिककार फैनलि टेल्स्. उगिद्वर्णग्रहणवर्जम्, वर्जम् इस् लीविङ्ग् उगिद्ग्रहण एण्ड् वर्णग्रहण. इन् आल् अदर् केसस् समासविधि, इफ् इट् इस् अ समासविधि आर् अ प्रत्ययविधि, देर् इस् नो तदन्तग्रहण. वाट् डस् इट् मीन्स्? इफ् इट् इस् उगित् ग्रहण आर् वर्णग्रहण, ईवन् इफ् इट् इस् समासविधि आर् प्रत्ययविधि, यु विल् स्टिल् गेट् तदन्तविधि. So you had an exception to the rule, and this is an exception to the Vartika itself. So you are coming back. You negated the Tadanta Grahana once, and you are negating again. So your bracket where we started, if it is Ugit Grahana or Varna Grahana, even in Pratyavidhi or Samasa Vidhi, you will still get Tadanta Vidhi. Yatra Sutra Ugit Grahanam Athava Varna Grahanam Asti. Ugit Grahanam Namakim, Varna Grahanam Namakim, ite agre uchyate. यदि उगिद्ग्रहणमस्ति अथवा वर्णग्रहणमस्ति तादृशेषु स्थलेषु समासविधावपि तदन्तविधिः भवति, प्रत्ययविधावपि तदन्तविधिः भवति. अर्थात् उगिद्वर्णग्रहणं वर्जयित्वा अन्यत्र समासविधौ प्रत्ययविधौ च प्रतिषेधः. किमुदाहरणम्? उगिग्रहणम्, उगितश्च इति सूत्रमस्ति स्त्रीप्रत्ययेषु, तेन स्त्रीप्रत्ययः विधीयते. उगित् नाम किम्? उक् इत् यस्य सः उगित्, यस्मिन् शब्दे उक् उक् इति प्रत्याहारः, अयून् ऋलृक् उ इत्यतः आरभ्य ऋलृकः ककारपर्यन्तं प्रत्याहारः. उ ऋ इति त्रयः वर्णाः गृह्यन्ते. यस्मिन् शब्दे उक् नाम उकारः ऋकारः ऋकारो वा इत् भवति सः उगित्. यस्मिन् एते वर्णाः नाम उकार ऋकार ऋकाराः इत् संज्ञां प्राप्नुवन्ति, इत् संज्ञा केन भवति? ऊर्लृ सर्वे अपि असः, तस्मात् ऊका उपदेशे अजनुनासिक इत् इत्यनेनैव भवेत्. अचाम् इत् संज्ञाविधायकम् अन्यत् किमपि सूत्रं नास्ति. उ अच् स्वरस्य कुत्रापि इत् संज्ञा भवति चेत् तेनैव सूत्रेण, किं सूत्रम्? उपदेशे अजनुनासिक इत्. यत्र प्रत्यये वा समासे वा कुत्रापि उकार ऋकार लृकार इत्यनयोः अन्यतमस्य इत्संज्ञा अस्ति चेत् सः उगित् भवति. सूत्रे उगित् इति पदस्य ग्रहणम् अस्ति चेत् प्रत्ययविधावपि तदन्तग्रहणम् नास्ति इति वार्तिकार्थः. कथम् उगितश्च इति सूत्रमस्ति. किमुच्यते? यत्र शब्दः उगित् भवति तत्र ङीप् इति कश्चन प्रत्ययः विधीयते. उदाहरणार्थं भवतु इति कश्चन शब्दः अस्ति. भवतु इति शब्दः अस्ति. सर्वनाम सर्वादिगणे पठितः अयं शब्दः. भवान् भवन्तौ भवन्तः इति यः शब्दः अस्ति स एव मूलशब्दः भवति भवतु इति. अत्र उकारः अनुनासिकः. अनुनासिकत्वात् तस्य उपदेशे अजनुनासिक इति इत्यनेन इत्संज्ञा भवति. भवत् इति तकारान्तं प्रातिपदिकं भवति. अयम् उगित्. किमर्थम् उगित्? अत्र उकारः उग्वर्णः. उकारः इत् यस्य सः उगित् भवति. अयम् उगित्. उगितश्च यदि प्रातिपदिकम् उगित् भवति तर्हि तस्मात् प्रातिपदिका नीप् इति प्रत्ययः विधीयते. तस्मात् भवान् इत्यत्र इत्यस्य स्त्रीलिङ्गे रूपं भवति भवती इति. भवान् भवति. इदानीम् अतिभवत् शब्दस्य ई प्रत्ययः भवति वा, तदन्तस्य ग्रहणम् अस्ति वा इति प्रश्नः. यतोहि उगित् इति विशेषणं प्रातिपदिकात् इति विशेष्यम्. विशेषणं तदन्तस्य संज्ञा स्यात् तस्य च रूपस्य इति उच्यते. तस्मात् येन विधिस्तदन्तस्य इत्यनेन भवत् शब्दान्तस्य अतिभवत् इत्यस्यापि प्रत्ययः प्राप्तः. प्राप्ते वार्तिककृता किम् उक्तम्? समासप्रत्ययविधौ प्रतिषेधः इत्युक्तम्. अयं प्रत्ययविधिः ङीप् इति प्रत्ययः विधीयते. प्रत्ययविधौ तदन्तग्रहणं नास्ति इति उक्तम्. यदि तदन्तग्रहणं नास्ति तर्हि अतिभवत् शब्दस्य ङीप् न भवति. किन्तु पुनः वार्तिककारेणैव उक्तम् उगिद्वर्णग्रहणवर्जम्. यदि सूत्रे उगिद्ग्रहणम् अस्ति तर्हि प्रत्ययविधावपि तदन्तग्रहणम् अस्ति. तस्मात् यः स्वयम् उगित् भवति तस्यापि ङीप् प्रत्ययः भवति. उगिदन्तस्य भवत् शब्दान्तस्य अतिभवत् इत्यस्यापि ङीप् भवति. तेन अतिभवति इति रूपं सिद्ध्यति. So what does Ugit Varna Grahana Vartyam tell? It tells that if the sutra is mentioning Ugit, the word Ugit, then even if it is a Pratyaya Vidhi or a Samasa Vidhi, you will still get Tadanta Grahana. What is Ugit? Where either Ukara, Rikara or Rikara is it, it is called a Ugit. There is one sutra in Stri Pratyayas which tells, Ugitascha, if a particle is Ugit, then you to do the suffix called ngip. The example of this sutra is bhavatu. Bhavatu is the bhavan. The rupa is from the bhavatu shabda. It is a sarvanama in which ukara gets the itsamya. So this bhavatu becomes ugit. Since it is ugit, from the ugitashta you get the ngip pratyaya and the strilinga form becomes bhavati. The question is, will ati bhavat? Is there tadanta grahana in this case? Is the question. Originally there was tadanta grahana because of ena vidhis tadantasya. The sutra told very simply that if it is a visheshana then there is tadanta vidhi. But the vartika tells that if it is a pratyaya vidhi there is no tadanta grahana. Since this is a pratyaya vidhi, from the vartika samasa pratyaya vidhau pratishedha you would not get tadanta vidhi. But the second vartika tells ugidvarana grahana vacham. If it is ugid grahana, even in a pratyaya vidhi you can do tadanta grahana. Because of that, here even tadanta, that is atibhavat shabda, also gets ni pratyaya, and like bhavat becomes bhavati, atibhavat becomes atibhavati. Idam ugit grahanasya udaharanam. Varna grahanasya kim udaharanam. Dipashyama. Ata i, it is uttamasti. Punaha tadhiteshu pravishyamaha, tadhitaha. Ataha at namakim. पूर्वकक्षायाम् अधीतम् अत् इति तपरः. तपरः तत्कालस्य. तेन अत् इति चेत् ह्रस्व अकारः इत्यर्थः. ह्रस्व अकारान्तात् प्रातिपदिकात् ई इति प्रत्ययः विधीयते अपत्यार्थे. अतः इति विशेषणं ह्रस्व अकारात्, प्रातिपदिकादिति विशेष्यम्. उदाहरणं भवति दशरथस्य अपत्यं दाशरथिः. प्रसिद्धः शब्दः दशरथ इति अकारान्तं प्रातिपदिकं. तस्मात् इप्रत्यये कृते दाशरथिः इति रूपं सिद्ध्यति. कदा सिद्ध्यति यदि अतः इत्यनेन तदन्तग्रहणम् अस्ति ह्रस्वात् अकारात् प्रत्ययः विधीयते वा अकारान्तात् प्रातिपदिकात् विधीयते वा इति प्रश्नः अकारः इति विशेषणं येन विधिः तदन्तस्य इत्यस्य प्रवृत्तिः अस्ति चेत् अकारान्तस्यापि भवति इति वक्तुं शक्यते किन्तु अयं पुनः प्रत्ययविधिः ई प्रत्ययः विधीयते तस्मादयं प्रत्ययविधिः प्रत्ययविधौ तदन्तग्रहणं नास्ति समासप्रत्ययविधौ प्रतिषेधः तस्मात् अकारान्तस्य न प्राप्नोति तदा पुनः उक्तं वर्णग्रहणं यत्र एकः वर्णः गृह्यते एकं वर्णम् उद्दिश्य किञ्चित् विधीयते तत्र तदन्तविधिः अस्त्येव अत् इति अकारः इति वर्णग्रहणम् एकः वर्णः एव दृश्यते तस्मात् वर्णग्रहणे तदन्तविधिः अस्ति वर्णग्रहणं विना अन्यत्र समासविधौ प्रत्ययविधौ प्रतिषेधः तस्मात् वर्णग्रहणे प्रत्ययः प्रत्ययविधिश्चेदपि तदन्तग्रहणं भवति तस्मात् अकारान्तात् प्रातिपदिकात् इति प्रत्ययः भवति स्वस्य च रूपस्य केवल अकारादपि भवति अस्य अपत्यम् इहि अह नाम विष्णुः तस्य अपत्यम् इहि नाम मदनः इति उच्यते केवलस्य अकारस्यापि इप्रत्ययः भवति अकारान्तस्य दशरथशब्दस्यापि इप्रत्ययः भवति तदन्तग्रहणम् अस्ति वर्णग्रहणे तदन्तग्रहणम् अस्ति द सेकेण्ड् पार्ट् आफ् द वार्तिका वर्णग्रहणं वेर् एवर् यु आर् टेकिङ्ग् अ सिङ्गल् लेटर् wherever the sutra uses a single letter to do a karya there even if it is pratyayati you can do it for tadanta therefore a pratyaya which is being told for akara will also work for akaranta even if it is only akara you get the pratyaya if it is an akaranta then also you get the pratyaya how did this happen because of the vartika ugid varna grahana vacham तस्मादिदानीं येन विधिस्तदन्तस्य विशेषणं भवति चेत् तदन्तग्रहणं भवति समासप्रत्ययविधौ प्रतिषेधः समासविधौ प्रत्ययविधौ च तदन्तग्रहणं नास्ति उगिद्वर्णग्रहणवर्गम् उगिद्ग्रहणम् अथवा वर्णग्रहणम् अस्ति चेत् तदन्तविधिः भवति भवति न भवति पुनः भवति इति सूत्रार्थः ऐ होप् एव्रिबडि फालो Okay, if there are questions you can ask on Ena Vithis Tadantasya. Otherwise the next and all you have plain Samya Sutra. There is not much vichara. If you have any doubts, please ask in Ena Vithis Tadantasya. अग्रे गच्छामः इतोपि काश्चन सम्या कानिचन सम्यासूत्राणि सन्ति विरामोऽवसानम् पदद्वयमस्ति विरामः अवसानम् अवसानम् इति सम्या द टर्म् दट् इस् बीङ्ग् डिफैन्ड् बै दिस् सूत्र इस् अवसान विरामः विरामः नाम कः वर्णानाम् अभावः अवसानसम्यः स्यात् अग्रे कोऽपि वर्णः नास्ति चेत् अन्तिमः वर्णः यः भवति तस्य अवसानम् अग्रे वर्णाः न सन्ति चेत् तस्य वर्णाभावस्य अवसानम् इति सम्यक् उदाहरणार्थं खरवसानयोः विसर्जनीयः इति सूत्रमस्ति खरि अवसाने च परे रेफस्य विसर्गः भवति इति सूत्रार्थः केवलं रामशब्दः अस्ति चेत् रामसुप्रत्ययः क्रियते तस्य ऋत्वं क्रियते इदानीं ऋ इत्यतः अग्रे किमपि नास्ति कोऽपि वर्णः नास्ति तस्मात् अवसानम् इत्युच्यते अवसाने परे रेफस्य विसर्गः स्यात् इत्युक्तस्मात् रामः इति भवति तदेव अग्रे किमपि अस्ति चेत् उदाहरणार्थं राम सु गच्छति इति अग्रे गकारः अस्ति चेत् अवसानाभावात् तत्र विसर्गः न भवति रामो गच्छति इति भवति तत्र रामः इति विसर्गः न भवति अवकाशः नास्ति यत्र अवसानम् इत्युक्ते वर्णानाम् अभावः अग्रे कोऽपि वर्णः नास्ति चेत् तत्र अवसानम् इति संज्ञा तां संज्ञाम् उपयुज्य खरवसानयोः विसर्जनीयः इति सूत्रेण विसर्गः विधीयते अवसान देर् सिम्पल् इफ् देर् इस् नो अदर् लेटर् फालोयिङ्ग् देन् दट् थिङ्ग् विल् बि काल्ड् अवसान परसन्निकर्षसंहिता पदत्रयं परः सन्निकर्षः संहिता संहिता इति संज्ञा विधीयते. द नेम् बीङ्ग् गिवन् इस् संहिता. का नाम संहिता? वर्णानाम् अतिशयितः सन्निधिः संहितासंज्ञः स्यात्. यत्र वर्णानाम् अत्यन्तं सामीप्यं भवति, सन्निकर्षः नाम सान्निध्यं, सामीप्यं भवति, सा एव संहिता इत्युच्यते. सर्वे सन्धयः संहितायाम् इत्यधिकारे विधीयन्ते. संहिता इस् द नेम् गिवन् टु क्लोज्नेस् आफ् लेटर्स्. द क्लोज्नेस् लेसे इस् ड्यूरिङ्ग् द प्रनौन्सियेशन्. इफ् टू लेटर्स् आर् प्रनौन्स्ड् वित् अ गेप् आफ् लेस् देन् हाफ् अ मात्र, then it is called samhita. When you are pronouncing two letters very close to each other, that is with a gap of less than half a matra, then it is called samhita. Varnanam atishayitah sannidhihi, extreme closeness among letters is called samhita. All sandhis happen only when there is samhita. If I say deva now, iti now, and api 2 seconds later, then there will be no sandhi. Only when I am the ikara and akara are being pronounced very close to each other, there will be a sandhi. Iti api becomes ityapi only when you pronounce it very close together. All sandhis, almost all sandhis happen in the adhikara called samhita. Where there is a samhita, there is a sandhi. So the samnya given here is samhita. What is samhita? Parasannikarsha samhita. Agre, suktingantam padam. Padam nama kim? व्याकरणशास्त्रे पदं नाम किम्? यतोहि अत्र भिन्नदर्शनेषु वैरुध्यमस्ति. वाट् इस् अ पद, वाट् इस् अ वर्ड् वेन् यु डिफैन्? सो अकार्डिङ्ग् टु व्याकरणशास्त्र सुप् तिङन्तं पदं, सुबन्तं तिङन्तं च पदसंज्ञं स्यात्. यदि किञ्चन कश्चन शब्दः सुबन्तः भवति अथवा तिङन्तः भवति तदैव तस्य पदम् इति संज्ञा. सो hope you know subantas are all namapadas. Wherever you add the su aujas, the pratyayas, they are called subantas. Where you add the ti taha anti, they are called tingantas. So for any word to be called a pada, then it has to be either subanta or tinganta. Say plain hari is not a pada, it is only a pratipadika. When does it become a pada? When you add a pratyaya and it becomes harihi. Now this is a subanta and this is a pada. Similarly, the dhatu bhu is not a pada. It becomes a pada only when you add the pratyaya and it becomes bhavati. Ramaha is a pada. Bhavati, bhavanti, anything, any subanta or a tinganta is a pada. Why is this very important? It's because there is a rule which says, apadam na prayandita. Whatever is not a pada should not be used in prayoga. You can do only a prakriya, but you cannot use plain hari anywhere. Okay, so it has to be either a subanta or a tinganta for you to use it in prayoga. So what is the pada? Sup tingantam padam. Subantam va bhavet, tingantam va bhavet. Subanta tinganta bhinnani padani samskrute na santi. There is no word which is neither a subanta nor a tinganta. Halo nantara sanyogaha. Sanyogaha iti samnya vidhiyate. हलः अनन्तराः संयोगः. अन्तरः नाम अवकाशः, मध्ये ब्रेक्. वेन् देर् इस् संथिङ्ग् एल्स् इन् बिट्वीन् टु थिङ्ग्स् इट् इस् काल्ड् एन् अन्तर. अनन्तराः नाम मध्ये किमपि नास्ति चेत् ते अनन्तराः. अद्भिः अव्यवहिताः हलः. हलः संयोगसंज्ञाः स्युः. यदा हल् द्वयस्य मध्ये अच् नास्ति चेत् अज्भिः अव्यवहिताः हलः, तदा तस्य संयोगः इति संज्ञा. उदाहरणार्थं हलः इति पदे एव हकारः अकारः लकारः अकारः अस्ति. हल् द्वयमस्ति, हकारः लकारः, किन्तु मध्ये अचाव्यवधानम् अस्ति, तस्मात् अयं न संयोगः. किन्तु व्यञ्जनानि इति पदे व यु अ ञ ज अ न अ न इ, अत्र वकारयकारयोः मध्ये अन्यः कोऽपि अज्वर्णः नास्ति, तस्मात् अयं संयोगः. एवं यकारजकारयोर्मध्ये अव्यवधानात् अयमपि संयोगः. अस्य जकारस्य नकारस्य च मध्ये अचाव्यवधानात् अत्र संयोगः नास्ति. संयोग इस् वाट् वि कामन्लि कॉल्ड् अ संयुक्ताक्षर. वाट् इस् अ संयुक्ताक्षर? we say commonly that whenever you add a vyanjana to a vyanjana, when you join two vyanjanas, then you get sanyoga or a sanyastakshara. It's a very simple concept. Panini has defined it this way. Next you have laghu and guru, two samyas which are used. So what is laghu and what is guru? Hrasvam laghu. Hrasvam, hrasvaha swaraha bhavati cheta, sasya laghu iti samya. Hrasvaha namakaha, ukalo jhrasvadeekha prataha. Ukara sadrisha uccharanakalaha yasya ataha, saha laghu iti cheta, saha hrasvaha iti cheta, sasya iva laghu iti api namantaram vartate. उदाहरणार्थम उकारः सोपि लघुसंज्ञां प्राप्नोति गुरु इति पदेपि तथारोत्तर उकारस्य लघु इति संज्ञा रेफोत्तर उकारस्यापि लघु इति संज्ञा कुतः सर्वेपि ह्रस्वस्वराः संयोगे गुरु ह्रस्वः ह्रस्वम् इति अनुवर्तते ह्रस्वं संयोगे परे गुरुसंज्ञं स्यात् यदा ह्रस्वस्य अग्रे परतः संयोगः भवति कः संयोगः इदानीमेव अधीतं हलोनन्तराः संयोगः कृष्ण इति पदे कृ इति स्वीक्रियते चेत् अयं लघु कुतः ऋकारः ह्रस्वस्वरः अग्रे षकारणकारयोः षु न अ षकारणकारयोः मध्ये अथ अव्यवधानात् संयोगसंज्ञा अस्ति संयोगे परतः ह्रस्वस्वरः अपि लघु अपि गुरु भवति ह्रस्वस्वरोऽपि संयोगे परे गुरुः भवति तस्मात् अत्र ऋकारस्य गुरुसंज्ञा अस्ति न तु लघुसंज्ञा ह्रस्वत्वेऽपि संयोगपरत्वात् अयं गुरुः दीर्घं गुरुः इत्यनुवर्तते दीर्घस्वरस्यापि गुरुः इति संज्ञा अस्ति राम इत्यत्र रेफोत्तर आकारस्य दीर्घत्वात् सः गुरुः भवति इति संज्ञाप्रकरणं समाप्तम् अग्रे इकोगुणवृद्धि इत्यादिरीत्या परिभाषाप्रकरणम् आरभ्यते सो दिस् एण्ड्स् संज्ञा एनी डौट्स् इन् वाट् वि डिड् टुडे आर् वाट् वि हेव् बीन् डूयिङ्ग् आल् दिस् क्लासस् यु केन् आस्क् एनी डौट्स् मोहन Hello, Mohana, you are unmuted. Microphone not working. You can type your question, please. I'll look at the question and answer. Anybody else has a question?
नमस्ते जी कृपया
हाँ हाँ
जी प्रतिषेधः विषये किञ्चित् विस्तारेण वक्तुं शक्यते वा
प्रतिषेधः नाम निषेधः अर्थात् इट् इस् अ व्हाट इस् द वर्ड आई एम नॉट गिविंग इट द इंग्लिश वर्ड फॉर प्रतिषेधः It is not exception. Exception is apavada. Pratishedha is when you are getting a karya from a rule and the other sutra prevents its application. For example, you have here, ena vidhis tadantasya gives tadantagrahana. But by the vartika samasatasya vidhau pratishedha, it prevents the application of ena vidhis tadantasya in two cases. That is in samasavidhi and satyavidhi. That is what we call pratishedha or nishedha. This is an... Anybody? Any suggestions? What is the English word for pratishedha?
Samyaji, could it be negation?
Yeah, negation. Exactly. So negation is the word. Negation means what the original sutra is telling. You are preventing its application by negating, saying in particular cases, that sutra will not apply. This is what is a pratishya. Yasam, Kaliyaradhanji, it was a question asking?
Nastiji, Kaliyaradhanji.
Mohanamurti is asking, Jaras and Nirjaras, are there only exceptions? They are not exceptions. Exceptions to what? I mean, I didn't understand the question. They are not exceptions. It is an example of the application of Yenavithis Tarantasya, where you have four Jara Shabdas, Panini is giving the Adesha Jaras. Using Yenavithis Tarantasya, you can also apply it to Nirjaras, which is Tadanta. Similarly, there are lots of cases where you can use Yena Vidis Tadantasya and apply Tadanta Vidhi. If your question was something different, please rephrase it so that I can understand.
Hello.
Vatsu?
Yeah. I was thinking Pratisheda, can it be interpreted as contention?
Contention.
In the sense, it's another rule which is in competition, which essentially...
There is no competition because according to Panini, the competition can happen only when the two sutras are on equal terms. But here the Nishesha Sutra always prevents the application of the Vidhi Sutra. There is no competition. It always wins. Whatever, if there is a Vidhi Sutra and a Nishesha Sutra, the Nishesha Sutra will always apply.
So pratishedha is nishedha then?
Yeah, pratishedha and nishedha are same. Pariyaya prata. Okay.
Thank you.
Hello, Samari? Aptis is, you know, keeping or warding off, driving away expulsion, prohibition.
Prohibition is also, yeah, correct. That's a, this is also a correct word. Either negation or prohibition is what is a pratishedha. It prohibits or prevents the application of a vidhi sutra. Okay. Any other questions? If there are no questions, I would like to pose a few questions which were asked to me over email. Email dvara prashnaha preshitaha maya uttaranyapi dattani. Kintu, while answering, I did not mark the entire group. So I thought I'll just discuss those again. From now on, I'll make sure that if a question is asked, I'll mark the entire group so that everybody can know what the question was and the answer. One of the questions which Rahul had was, what is the difference between Anuswara and Chandrabindu. Anuswarasya Chandrabindu, nama Anunasikasya Madhya, Ko Bhedaha. Is there anybody who would like to answer this question? I'm sure most of you know. So if you can just answer this question, please raise your hand. So, Anuswarasya Chandrabindu, nama Anunasikasya Madhya, Kaha Bhedaha. What is the difference when I write A with A with a dot above and A with a Chandrabindu above. Is there a difference or not? If there is a difference, what is the difference? Any volunteers, please? You just tell. Even if it is wrong, there is nothing. You will just have a different point of view.
Hello.
Huh?
My guess is that just a bindu stands for makara.
Huh?
The anuswara is for all the anunasika letters like na, ma, ga, ga, nya,
you know. They are all anunasikas, correct.
They are all anunasikas. When you put anuswara letter, Sandra Bindu. It can replace the corresponding.
You are again.
Corresponding sound. For example, if Dakara is after after a Nakara, if it is replaced by an Anuswara, it will correspond to the Nakara Anuswara sound.
I mean, yes, I think you are moving on to the next step, where an Anuswara can be converted to the fifth letter of each Varga when it is followed by the Vargakshara.
Yeah.
That is correct. I mean, if there is an Anuswara, like say Am, which is followed by Ga, it becomes Anga, where you say Ng and not M. Right?
Yeah.
So that is correct. But what is the difference between Anuswara and Chandrabindu?
Chandrabindu, in my opinion, just replaces Makara, one letter.
Oh, no.
Chandrabindu
is not
Chandrabindu, just a simple bindu, simple bindi as you may call it.
Yeah. Simple bindu or Anuswara generally replaces Makara, but not always. So, but no, I mean, I want a better difference. I mean, you are right in whatever points you made, but we still did not get to what is the difference between Anuswara and Ananak. Anuswara and Chandrabindu. Anybody else?
Let me see if Ravi wants to try.
Yeah, sure. Go ahead.
So maybe I think the difference, please correct me here, is that in the Anuswara, it is that Varna which is following the Swara. So it is Anu Pashat Swara. Whereas the Chandra Bindu denotes the Swara, which is also Anunasika.
Yeah, correct. Exactly. The Anuswara is a different character by itself. The Anuswara, when I say Am, the Anuswara is a character. We call it an Ayogavaka, but it is still a separate character. And it generally sounds like Mu, as he said. But Anuswara is a character which comes after a Swara. Paschat, Anu Paschat, Sarasya. So it comes after a Swara. So, but it is a separate character by itself. But the Chandrabindu indicates only one particular class of the Swara, which is called Anunasika. We read Mukhanasika Vasana Anunasika. So the Anunasika is a type of Swara. And there is a huge difference in the pronunciation. For Anuswara, I will say Am. Where for the Anunasika, I will say A. The A with a nasal intone is A. This is what I write as A with a Chandrabindu. It is nothing but the Swara Akara with the nasal tone added to it. Whereas the Anuswara is a separate character which comes after the Akara. And it is pronounced as Mu. Or if there is a Vargi Vyanjana following it, it will be converted to the fifth letter, Anunasika, which we will see later. But that is the basic difference between Anuswara and Anunasika. Okay. And there were other questions. One second, please. See what. I think that was it. There were a few other questions, which were, but so now this much is enough. Now we had an assignment last class to list out what are the Samya Sutras and what are the Samyas given and what are the Samyi, right? So I received a few assignments and I think the others have it. I mean, if done it, just open it. So I'll just open one of these and see if we can get anywhere. So we'll try to see what all are the samyas which you studied in Samya Prakarana and what were the sutras. So which was the first samya? Can somebody volunteer again? I mean, I've been speaking all the while. So if somebody can volunteer, read out. I mean, people who have already sent their assignment can volunteer or somebody else. So that you have an opportunity to talk. Anybody, please.
Swamiji, this is Ravi. So first, we went over Halantyam. That's the Saumya Sutram.
Correct. Upadeshe. Now, if the question is which is the, one second. Correct. Halantyam is a sutra which gives if I ask Itsamya Vidhayakam Sutram Kim, what would be the answer?
The answer for that would be Halantyam.
Okay. Why not Upadeshe Adhivana?
So Upadeshe Ajananasika, it only mandates Idvarna for Ach, not for Hals.
Correct. I didn't ask which is the Itsamya Vidhayakam Sutram for Hal.
Yeah, this generally, is only for Hal, yes.
So there are different applications. What I mean, the point I wanted to make is whenever you are given a Samya and are asked to give the Samya Sutra, it is always a practice to give the sutra in which that Samya appears. I mean, you have some 10 different or 8 different sutras for it Samya. But the word it appears in only one sutra, which is Upadeshe Ajananasika Itta. So the general it Samya Vidhayakam Sutram, if somebody asks, the first sutra which should come in the list is where you hear the Samya. Right? Upadeshe Ajananasika Itta is the first sutra in the Ashtadhyayi which gives the it Samya. So Halantyam is also the Itsamya Vidhayakam Sutra, there is no doubt. But the first thing, if I say Itsamya, or say if you are writing some exam which asks what is the Itsamya Vidhayakam Sutra, the preferred answer would be where you hear the Samya. Okay? So that's just a point, wherever you have. But here, yeah. For the Itsamya, we have two sutras, Upadeshe Ajananasika Itta and Halantyam. So what is the Samyi in Upadeshe Ajananasika Itta?
The Saugni is the Ach, any Ach.
Anunasika Ach.
Anunasika.
So any Anunasika Ach will get the Samya called It by the Sutra. So the Samya Bhavati It Samya. Sutram Bhavati Upadeshe Ajananasika It. Samyi Asti Anunasika Ach. Agre Halantyam Ityapi Asti. Itsamya Vidhayakam Sutram. Samni kaha?
Samni hal.
Hal. Kevalam hal?
Antyam hal.
Does any hal get Upadeshe Antye Yaha Hal Vartate? Tasyaiva Anena Samya Vidhayakam. So Upadeshe Antyaha Hal Itsamya Bhavati. Kaha Samni. Samya It Samya Sutram Halantya. Samni Bhavati Upadeshe Antyaha Hal. There's a question, one second, right? It's Kalivaradanji asks, what about Adirantyana Saheta? Adirantyana Saheta does not give the Samya It. It only uses the Samya It to define a Prasyaha. Okay? So it is not a Samya Sutra for It. Ready?
So you want to look at the next
Samya
with Ayaka Sutra? Ukalo Jrasvadir Ghaputaha.
Ukalo Jrasvadir Ghaputaha.
It defines the Samya.
Sa Samya with Hiyate.
Hasvadir Gha and Pluta.
Hraswaha itti samya vidhayakam sutram bhavati upano shastra dirgha plutaha. Dirghaha ityati samya tasyapi tadeva vidhayakam sutram plutasyapi tadeva. Samyi kaha. Hraswa iti samyayaha samyi kaha.
Hraswa ach.
Hraswaha iti samya vidhiyate. You cannot use the samya itself in your samyi.
So the Kala Sadrushaha, the Ach which is pronounced or said with the same Kala as Rasva Ukara or U.
उ इत्यस्य उच्चारण सदृशकालः अच् सम्मी. I hope, I mean, the only reason I'm doing this is for you to get a clarity of concept, for everybody to know how you define a sammi. What exactly is it that which gets the samya from this sutra, right? So what is it that gets the samya hrasva? Any swara, ach, which is pronounced in the same kala as u. So ukara uchcharana sadrisha kalaha yasya saha ach sammi. Kasyaha samyayaha hrasva samyaya. इदानीं सुलभं. दीर्घसंज्ञायाः सम्मी कः? ऊकाल उच्चारण सदृशकालः यस्य तादृशः अच् अचेव सम्मी. इट् इस् स्वर. वाट् कैण्ड् आफ् अ स्वर? ए स्वर विच् इस् प्रोनौन्स् इन् द सेम् टैम् आस् ऊ विल् बि द सम्मी. इट् सुप्लुतसंज्ञायाः सम्मी कः?
The ach which is pronounced in the same kala as u.
So that is the sammi. Okay. Next. Now, can somebody else try? Somebody else, please. Mohanamu.
Can I say ralau, sanja, sanya and upadeshe anunasita it? And then sammi, ra and la.
Sorry, I didn't understand.
Sanya, ralau, ra, la, cha.
But we are talking about pratyahara. Each pratyahara is a samya for something. That would be correct. I mean, ra is a samya and ru and lu will be the samyi. Correct.
Yeah, I mean, separately.
That is correct. But it is not a... that is correct.
So can
we
say the sutra?
You have to say exactly. So there is no sutra which specifically tells ra is the samya for ra and lu. You'll have to use adhirantena saheta and say it is a pratyahara. And the pratyahara itself is samya for ra.
And you can also say so upadesha.
No,
achananasika ittu.
No, that will only tell that akara is it. That is all. Upadeshya Anunasika, it tells the akara in lan is it. That is all. It does not do anything beyond that.
Okay. Thank you.
Okay, one second. Hema asked me to pronounce the sutra. Ukalo jhasra dirgha prutaha. Ukalo jhasra dirgha prutaha. You have a jha and a jha. Because of the sandhi. Ukalo jhasra dirgha prutaha. That's how you pronounce it. We have very little time. So can somebody else volunteer for the...
Soumyaji, I took down anywhere I could see, even if you mentioned a few sutras in the, under this prakarana. Can you hear me?
Yeah, I can hear you. Tell me.
I put arthavada adatuka adatura pratyaha
pratyaha, but we haven't yet dealt with that sutra in the Kaumudi, right? And yeah. I used it as a udaharana,
yeah.
But the Kaumudi so far hasn't defined it, so we'll not use it. We'll see when it comes there.
I put that down
in the Kaumudi.
Pratipadika sanya, it's just
satyam pratipadikam ite samya. अर्थवदधातर प्रत्ययप्रातिपदिकम् इति विधायकं सूत्रम् भवति. अधातुः तदेव, देर् इस् अ ह्यूज् थिङ्ग् विच् इस् अ सम्मि. सम्मि विल् बि धातुभिन्नः, प्रत्ययभिन्नः, प्रत्ययान्तभिन्नः, अर्थवत् शब्दः इस् द सम्मि. विच् विल् देट् इस् विल् सी इट् वेन् वि कम् टु द आक्चुवल् सम्य. वाट् इस् द सम्य?
And the next one I identified is the Mukha Nasika Vachano Anunasika. Anunasika is the Sanya. Anuswara Swaraha as the Sanyi.
No. Is this only for Swaras? is mukhanasika no, is anunasika a kamya which is applicable only to swaras?
In the sanya sutra, it is a sanya sutra, right?
Correct. It is, I mean, the first two parts are correct. Anunasika is the samya and mukhanasika vas anunasika is the samya vidhayakam sutram.
Mm-hmm.
But what is the samni? What is the samni? That particular thing to which you are attaching that name is a samni.
Mm-hmm.
Right? So what is the particle that you are calling anunasika? It is not just swara because niyama ganana are also anunasika.
That was my this one doubt. I didn't put down in the homework anything under that. So thanks for the clarification.
So, the samni is mukhanasika vachanaha varanaha. Any varana which is pronounced with the sahaya of both mukha and nasika will be called an anunasika. So the samni is mukhanasika vachanaha. It can be either a swara as in a, or it can be a vyanjana as in nyamanganana.
Mm-hmm. Yeah. Thank you. And
next samya. Yes.
Is anunasika varna. Next.
Mukhanasika vachanaha varanaha.
Yeah. Okay. Tulyasya prayatnam savaranam.
But before this, didn't we leave out any samya sutra between ukalo dhyasva dhyasva plataha and mukhanasika vachanaha?
Ateng gunaha was mentioned. It's a guna sagya, ayevo.
No. Guna samya comes later in the Kaumudi. In the Kaumudi itself, among the sutras.
Mm-hmm.
You have udatta, anudatta and swaritam.
Yeah, udatta, anudatta, swaritam.
They are also samya.
Yes. One,
no, udatta samya.
Udatta Sanya, Uchair Udattaha 1229.
And Uchair Udattaha iti Samya Sutram.
Mm-hmm.
Udattaha iti Samya. Mm-hmm. Samni kaha?
Udatta Sahita Swaraha.
No, Udatta itself is a samya. So in the description you cannot use Udatta. You are naming it Udatta and certain conditions are satisfied. So what is the condition for a varna to be called Udatta? When do you call a swara as Udatta?
When the pitch is high.
So, talvadishu sthaneshu urdhvabhage utpannaha ach iti samni. What can qualify to be a udatta? Any ach. You give udatta, anudatta, sarita only for swara. That is the first point. So udatta is a swara. Which swara? A swara which is pronounced from the upper part of the it is not the higher pitch. It is pronounced from the upper part of the sthana. Talvadi sthaneshu ucchaihi Udhvabhage utpannaha swaraha is the samni. Okay. So now tell me what is anudatta samni for anudatta.
Nichair udattaha 1, 2, 3.
Nichair anudatta.
Nichair anudattaha. And talvadisthaneshu nichaihi swarita swaraha.
Adhobhage nishpannaha swaraha is the samni. Talvadishu sthaneshu adhobhage nishpannaha swaraha samni. Samya kaha bhavati anudattaha iti samya bhavati. So swaritaha.
Samaharaha swaritaha. 1, 2, 3, 1.
Samya vidhayakam sutram.
Talvadishu sthaneshu. Sama Ucharanai.
Maharaha iti sutra. Sutra artha eva asti. Generally you can find the samni from the sutra artha. The sutra that is udartatva anudartatva iti varana dharmanam samaharaha yatra asti tadrishaha swaraha. A swara will be called swarita if it has both udartatva and anudartatva. Okay, clear? Any doubts? How do they sound? Udatta, anudatta, svarita. If you hear the Vedas, that is where they are. You do not hear them in Laukika Sanskrit. So when you are chanting the Vedas, if you say, I mean, I haven't learned the Vedas, so I'm not the right person, but this is called Gananahantva Ganapatigam Havamahe Kavinka Veenamupamashravashramam. It is one part of the Veda Sutra where you have, say, anything which is coming at a lower pitch, which is Anudatta. Say, Gananahantva. The Ga itself starts at a lower pitch. It is called Anudatta. Anything which comes at a higher pitch is called Swarita, and all middle pitch terms are called Udatta. So if you hear the Vedas carefully, you can hear that there are three levels or pitches of pronunciation. There are some letters which are pronounced at a lower pitch, some with at a higher tone, and some which come in middle. So they are called Udatta, Anudatta, and Svarita. Pluta is easy. One second, please. I'll answer Julia's question. She wants to demonstrate Pluta. Pluta is a longer than the Dikha. Say, A is Hraswa, A is Dikha, A is Pluta. It is three matra. One matra longer than the Akara is a Pluta. Huh. Somebody was saying something. Sorry, I interrupted. Vasuji?
Anji?
Kyuntyuktam ho? You said something?
Should I proceed with the next couple of ones? I had questions on it. Tulyasya prayatanam savarnam. Is that sanya for savarna grahanam or savarna?
Is it for savarna grahanam or savarna samya? This is the question which I should ask. Tulyasya prayatanam savarnam is the savarna samya vidhayakam sutram. Anudit savarna satartataya hai savarna grahata. Because Tulyasya Prayatnam Savarnam tells, defines Savarna. Okay. Tulyasya Prayatnam Savarnam iti Samya Vidhayakam Sutram. Savarnam iti Samya. Samyi kaha?
Sangi is all the Savarnas.
You cannot again say Savarna. You are still trying to define what is a Savarna. The Sutra itself tells. Tulyasya Prayatnam. So, Samana Sthana Prayatna Vantau Varnau. Any two letters which have the same Sthana and Prayatna will be called Savarna. Right? What is a Savarna? Anything which has the same. Any two letters which have the same sthana and the same prayatna will be called savarnas of each other. Right? So, samana sthana prayanta vantau varnau, prayatna vantau varnau, sammi. It is always for a pair of letters, paraspara savarnya. It is not just for one letter. Okay, I think we are running lots behind time. And I think we should continue this discussion in the next class. Now that we have finished the Samya Prakarana this class, please add these to your assignment. And I mean, since I think you got a hang of how exactly you define a Samyi, that is where you have. You can say what is the Samya and what is the Sutra, but if you can identify the Samyi correctly, that is when your knowledge of the Sutra will be complete. So, for next class, whatever we did this class, try to add those Samyas and the Samyi, and we'll continue this discussion next class. We have done till Tulyasya Prayatnam Savarnam. So the next samyas we'll see in the next class. Now, does anybody have a doubt within this? Within whatever we did, if you have a doubt, please ask. Otherwise, we'll continue this next class. And there was one question which was left by Yulia, I mean, which was asked by Yulia and which I haven't answered it. She asked, where do we meet the Pluta? The Pluta is generally seen, it is seen in a lot of cases, but the most frequent usage is when you are inviting somebody who is far away. If there is Rama somewhere and you call him, he will say, Rama Atra Aracha. So, Durahvane, when you are inviting somebody from far, the last letter of the Swara will naturally get a Pluta. I mean, even in language, when you are calling somebody from far ahead, you will have the Pluta. So, that is where you see Pluta. You also see it in other cases, which we will see when we come to that particular Prakara. So, are there any other questions? Or can we close this? Shali Varadhanji?
Chief, Sanyi Chistasthane Vritti Dhaapi Svikatam Shakhi Deva?
Avashyam. Hello. Sanyi is what we are defining. Hello.
Astaji.
Vritti Dhaapi Svikatam Shakhi Deva. Ito hi Sanyi itiyatat अस्माकं स्पष्ट स्पष्टार्थम् इत्युक्ते स्पष्टतया कस्य संज्ञा विधीयते इति ज्ञातव्यं चेत् वृत्तेरेव स्वीकरणीयम् इट् इस् फ्रोम् द वृत्ति वेर् यु विल् गेट् द प्रापर् संज्ञा
धन्यवादः
येनाक्षरसमां नायम् अधिगम्य महेश्वरात् कृत्स्नम् अकरणम् प्रोक्तम् तस्मै पाणिनये नमः वाक्यकारम् वररुचिम् भाष्यकारम् पतञ्जलिम् पाणिनिम् सूत्रकारम् च प्रणतोऽस्मि मुनित्रयम् मुनित्रयम् नमस्कृत्य तदुक्तीः परिभाव्य च वैयाकरणसिद्धान्तकौमुदीयम् विरच्यते